ब्रह्म गुरु विष्णु गुरु देवो महेश्वर गुरु साक्षात् परब्रह्म तस्मै श्री गुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र असमवायिकारणमिति नूतनविषयः आगच्छति किन्तु गतवर्गे वयं तत्र द्रव्ये नाम अनित्यद्रव्ये उदाहरणार्थं घटः तत्र घटस्य उत्पत्तिसमये तत्र घटस्य उत्पत्तिसमये तत्र प्रश्नः अस्ति तत्र घटे तत्र रूपं नाम रक्तवर्णघटः इति अस्ति चेत् यदा घटस्य निर्माणं भवति तस्मिन् समये उत्पत्तिः भवति तस्मिन् समये एव तत्र रूपमपि तिष्ठति वा रूपमपि तस्मिन् समये तस्य रूपस्य अपि उत्पत्तिः भवति वा इति तत्र प्रसङ्गः आसीत् तत्र वयम् अस्माकं चिन्तनं किम् आसीत् तत्र अनीता भगिनी किञ्चित् वदति वा तत्र
घटस्य उत्पत्तिक्षणे तत्र द्रव्यरूपेण यदि रूपं विषये अहं वदामः चेत् तत् न तिष्ठति उत्पत्तिक्षणे न तिष्ठति तत्र गुणरूपेण रूपम् इति गुणरूपेण अस्ति घटरूपं यत् रूपमस्ति तत् घटे समवायसम्बन्धेन तिष्ठति परन्तु रूपम् इति जन्यगुणः अस्ति जन्यगुणः अस्ति तत् अनित्य इति अस्ति अतः कारणं विषये यदि चिन्तयामः चेत् यतोहि यत् कारणम् अधिकरणाय भवेत् सर्वदा भवेत् इति कार्योत्पत्ते पूर्वक्षणम् अपि भवेत् तेन कार्योत्पत्ते पूर्वक्षणे तत् न भवति इति
समीचीनं भगिनि हा तर्हि उत्तमं तर्हि तत्र वयं किं चिन्तितवन्तः तत्र अत्र चित्ररूपेण यत् दत्तमस्ति तत्र चित्रं पश्यामः अपि एकवारं तत्र परिच्छेदमपि पठामः किन्तु तत्र स्थितिः का इत्युक्ते तत्र वयं पश्यामः तत्र चैत्रक्षणे अपि वैशाखक्षणे ज्येष्ठक्षणे आषाढक्षणे नाम तत्र क्षणचतुष्टयं तत्र चैत्रक्षणे घटस्य सामग्री अस्ति तत्र यानि कारणानि आवश्यकानि तत्र घटस्य उत्पादनार्थं तानि सर्वाणि तत्र सन्ति अग्रिमे क्षणे तत्र घटस्य उत्पत्तिः भवति तस्मिन् क्षणे गुणः नास्ति नापि क्रिया भवति घटे इति उक्तम् अत्र किन्तु अग्रिमे क्षणे तत्र गुणस्य उत्पत्तिः अपि तत्र क्रियायाः उत्पत्तिः अपि भवति तत्र किमर्थम् इत्युक्ते तत्र यदि तत्र अस्मिन्नेव क्षणे रूपमपि आसीत् यदि रूपमपि अस्मिन्नेव क्षणे भवेत् तत्र रूपस्य घटरूपस्य कारणं घटः तत्र कार्यमस्ति रूपं कारणमस्ति घटः अपि कार्यकारणयोः तत्र निकषत्रयम् आसीत् प्रथमनिकषः आसीत् तत्र कार्याधिकरणे कारणं भवेत् इति प्रथमनिकषः अपि कार्याधिकरणे कारणं सर्वदा भवेत् नाम यत्र यत्र घटस्य उत्पत्तिः तत्र तत्र यत्र यत्र कार्यस्य उत्पत्तिः तत्र तत्र कारणस्य तत्र तत् कारणं कारणेन स्थातव्यम् इति यदा यदा कार्यस्य उत्पत्तिः भवति तदा तदा कारणस्य तत्र कारणेन तत्र स्थातव्यम् इति अपि तृतीयनिकषः अस्ति कार्यस्य उत्पत्तेः पूर्वक्षणं कारणं कार्याधिकरणे भवेत् इति अत्र रूपम् इति कार्यमस्ति रूपं यदि अस्मिन् क्षणे तस्य उत्पत्तिः भवति चेत् तस्मात् पूर्वक्षणे एव तत्र घटः भवेत् यतोहि घटः कारणमस्ति रूपं प्रति घटरूपं प्रति किन्तु पूर्वस्मिन् क्षणे घटः नास्ति यतोहि सामग्री तु अस्ति किन्तु घटस्य निर्माणम् एतावत् न अभवत् इति कृत्वा घटस्य उत्पत्तेः क्षणे एव तत्र गुणः वा क्रिया वा तस्मिन् घटे न भवितुम् अर्हति, अग्रिमे क्षणे भवितुम् अर्हति किन्तु उत्पत्तेः क्षणे एव न भवितुम् अर्हति इति अस्ति। तर्हि तत्र एकवारं परिच्छेदं पठित्वा तदनन्तरम् अग्रिमनूतनविषये तत्र असमवायीकारणनिरूपणम् इति भवति, तत् तस्य पठनं कुर्मः। किन्तु प्रथमतया तत्र तर्हि नूतनतया तत्र चन्द्रमती भगिनी नमस्कारः, नरसिंह हेगडे महोदय नमस्कारः, नमस्कारः भगिनी, नरसिंह हेगडे महोदय नमस्कारः,
महोदय
नमस्कारः। तर्हि तत्र हा तर्हि मृणालिनी भगिनी भवती एव आरम्भं करोति वा तत्र एवं सति इति? यत्र
एवं सति द्रव्योत्पत्तिक्षणे एव तत्र रूपादीनां विशेषगुणानाम् एकत्वादीनां सामान्यगुणानाम् उत्पत्तिः न शक्या वक्तुं, तथा त्वे द्रव्यस्य गुणानां च युगपदुत्पत्त्या द्रव्यं गुणोत्पत्तिक्षणपूर्वक्षणवृत्ति न स्यात्, न स्यात् तर्हि तत् गुणानां प्रति कारणमपि द्रव्योत्पत्तिक्षणे एव तत्र रूपादीनां विशेषगुणान् यदि भवेत् तर्हि गुणं
तत्र प्रथमतया प्रथमवाक्यस्य अर्थः कः इति किञ्चित् वदतु, तदनन्तरं द्वितीयवाक्यं पश्यामः। तत्र द्रव्योत्पत्तिक्षणे
रूपादीनां विशेषगुणान् अर्थात् यदि घटस्य यदि वयं रूपं पश्येम तर्हि रूपमपि घटोत्पत्तिक्षणे एव भवेत् यदि एकत्वादीनां सामान्यगुणानाम् उत्पत्तिः न शक्या वक्तुम्।
तर्हि किं किमस्ति न शक्या वक्तुं, का अस्ति न शक्या वक्तुं
सामान्यगुणानां विषये एकत्व
किन्तु शक्या इति कस्य पदस्य विशेषणम्?
उत्पत्तिः।
हा उत्पत्तिः न शक्या वक्तुम्, केषाम् उत्पत्तिः न शक्या वक्तुं
सामान्यगुणानाम्
अपि विशेषगुणानां तत्र रूपादीनां विशेषगुणानाम् एकत्वादीनां सामान्यगुणानाम् उत्पत्तिः न वक्त्या न शक्या वक्तुं, कस्मिन् क्षणे तेषाम् उत्पत्तिः न शक्या वक्तुं?
द्रव्योत्पत्तिक्षणे एव
द्रव्योत्पत्तिक्षणे एव तस्मिन्नेव क्षणे तत्र तेषामपि उत्पत्तिः भवति इति न वक्तुं शक्नुमः। तत्र विशेषगुणानाम् इति किमर्थम् उक्तम्?
एकत्वादीनां तु सामान्यगुणानां विशेष
रूपं कुत्र कुत्र भवति, सर्वत्र भवति वा रूपम्? तत्र द्रव्ये एव सत्यं, यतोहि रूपम् इति गुणः अस्ति, किन्तु सर्वेषु द्रव्येषु भवति वा रूपम्?
न,
तत्र वायौ
वायौ रूपं नास्ति,
रूपं नास्ति। आकाश तत्र आकाशे
न,
आत्मनि
अपि नास्ति
नास्ति। एकत्वं कुत्र कुत्र वर्तते?
आम् एकत्वं तु सर्वेषु द्रव्येषु वर्तते।
अतः एव तत्र गतवर्गे वयम् उक्तवन्तः खलु, नाम एकत्वादीनां तत्र पञ्चगुणानां तत्र सर्वद्रव्यवृत्तित्वम् अस्ति, अतः सामान्यगुणः इति नामकरणम्।
आम् अवगतम् अवगतम्।
एकत्वादीनां नाम परिमाणं, वियोगः, संयोगः इति तत्र सामान्यगुणः इति, किन्तु रूपादीनां तत्र सर्वद्रव्यवृत्तित्वं नास्ति इति कृत्वा विशेषगुणः इति नामकरणं, तावदेव। किन्तु यद्यपि रूपं भवतु, विशेषगुणं भवतु, सामान्यगुणं भवतु, किन्तु गुणस्य उत्पत्तिः द्रव्यस्य उत्पत्तेः क्षणे एव भवति इति वयं न वक्तुं शक्नुमः। किमर्थम् अग्रे दत्तमस्ति यतो तथात्वे
द्रव्यस्य गुणानां च युगपदुत्पत्त्या द्रव्यं गुणोत्पत्तिक्षणपूर्वक्षणवृत्तिः क्षणवृत्तिः न स्यात्। यदि एतादृशं वयं स्थितिं स्वीकुर्मः कि द्रव्योत्पत्तिक्षणे एव रूपं विशेषगुणं वा सामान्यगुणं वर्तते,
तस्यापि उत्पत्तिः भवति। समीचीनं।
द्रव्यस्य गुणानां च युगपत् उत्पत्त्या द्रव्यं गुणोत्पत्तिपूर्वक्षणे वृत्तिः न स्यात्।
सोपानेन गच्छामः भगिनि। तर्हि तत्र द्रव्यस्य गुणानां च युगपत् उत्पत्त्या, युगपत् उत्पत्त्या नाम
एकस्मिन्नेव क्षणे उत्पत्ति,
समानकाले समानक्षणे युगपत् उत्पत्त्या, यदि द्रव्यस्य अपि गुणानामपि तत्र युगपत् उत्पत्तिः भवति, तेन उत्पत्त्या तेन कारणेन किम् अवगच्छामः, द्रव्यं कीदृशं भवति अथवा कीदृशं न भवति,
गुणोत्पत्ति क्षणपूर्वक्षणवृत्ति न स्यात्।
गुणोत्पत्तेः क्षण यस्मिन् क्षणे गुणस्य उत्पत्तिः भवति तस्मात् पूर्वक्षणवृत्ति द्रव्यं नास्ति, नाम पूर्वस्मिन् क्षणे गुणस्य उत्पत्तेः पूर्वक्षणं द्रव्यम् अस्ति वा
नास्ति।
यदि द्रव्यस्य गुणस्य एकस्मिन् समये एव तत्र उत्पत्तिः भवति, तर्हि द्रव्यं पूर्वक्षणे न भवति खलु, उत्पत्तेः पूर्वक्षणं गुणस्य उत्पत्तेः पूर्वक्षणं न स्यात्। तर्हि द्रव्यं गुणोत्पत्तिक्षणपूर्वक्षणवृत्ति न स्यात्। वृत्ति इति एतद् दीर्घपदं द्रव्यस्य विशेषणम्, अतः एव तत्र विसर्गः नास्ति। वृत्तिः इति स्त्रीलिङ्गपदं, किन्तु अत्र विशेषणरूपेण स्वीकृतम् इति कृत्वा तत्र वृत्ति इति नपुंसकलिङ्गपदम्। अत्र गुणोत्पत्तिक्षणपूर्वक्षणवृत्ति इति द्रव्यस्य विशेषणं, नपुंसकलिङ्गपदं न स्यात्। तर्हि द्रव्यं पूर्वक्षणे न स्यात्। तर्हि तत्र किं भवति
न स्यात्, तर्हि तत् गुणान् प्रति कारणम् अपि,
तत् द्रव्यं किं भवति,
तर्हि द्रव्यं गुणान् प्रति कारणमपि
न स्यात् तर्हि तत् द्रव्यं गुणान् प्रति कारणमपि न स्यात्। अतः तत्र एकस्मिन् क्षणे तत्र उत्पत्तिः न भवितुम् अर्हति, अतः उत्पत्तिः भवति इति न वक्तुं शक्नुमः इति अस्ति खलु भगिनि। हा धन्यवादः, समीचीनं। हा अस्तु अग्रे तत्र योगेन्द्रमहोदय अग्रे पठति वा।
अतः तस्य कारणत्वरक्षायै कारणस्य रक्षायै उत्पन्नं द्रव्यं क्षणम् एकम् निर्गुणम् निष्क्रियम् च तिष्ठति इति नियमः अभ्युपगम्यते। अतः यतोहि गुण द्रव्य
एतवत् तत्र बोध्यते इति पर्यन्तम् एकवारं पठतु महोदय, तदनन्तरं वाक्यं वाक्यं तत्र पठित्वा।
प्रथमक्षणे कार्यं द्रव्यम् एव जायते, तादात्मकसमवायिकारणसमवधानेन द्वितीयक्षणे गुणोत्पत्तिः, स्पष्टः अपि अर्थः चित्रेण बोध्यते। द्रव्यगुणान्प्रतिकारणमस्ति, अतः तत् कारणत्वं रक्षायै यद् द्रव्यं रक्षायै कारणस्य रक्षायै
विभक्ति तत्र
चतुर्थी विभक्ति
रक्षणार्थम् इति अर्थे
रक्षणार्थं
रक्षणार्थं
यत् द्रव्यं क्षणमेकं यदा उत्पन्नं भवति तदा एकं क्षणं निर्गुणं तिष्ठति अपि च निष्क्रियं, क्रिया अपि तत्र न जातः, गुणमपि तत्र न भवति, एकक्षणं तिष्ठति इति नियमः अप्युपगम्यते
इति नियमः आगच्छति यतोहि तत्र
आगच्छति
तस्मिन् क्षणे एव तत्र उत्पत्तिक्षणे तद् नास्ति, किन्तु रक्तघटः इति यदि वयं वदामः तत्र रक्तरूपं तु घटे अस्ति इति चिन्तनं, तर्हि रक्तरूपं घटे तु अस्ति किन्तु उत्पत्तिक्षणे नास्ति, अग्रिमे क्षणे एव तत्र क्षणम् एकमेव तत्र गुणं नास्ति, अग्रिमे क्षणे तत्तु अस्ति इति तत्र बहुकालं तत्र रूपं नास्ति तदनन्तरमेव आगच्छति इति न, केवलं तत्र नियमस्य
एकं क्षणमेव
एकं क्षणं तत्र निष्क्रियं निर्गुणं च तिष्ठति इति आगच्छति। हा अग्रे
तस्मात् प्रथमक्षणे कार्यं द्रव्यमेव जायते, यत् क्षणं वदति तत् पूर्वस्य क्षणे द्रव्यम् एव जायते, यस्मिन् क्षणे गुणः भवति।
उदाहरणार्थं घटः इति स्वीकुर्मः तर्हि तत्र प्रथमक्षणे
प्रथमक्षणे द्रव्यस्य उत्पत्ति, द्वितीयक्षणे रूपस्य उत्पत्तिः।
प्रथमक्षणे घटः इति स्वीकुर्मश्चेत् प्रथमक्षणे कार्यं भवति तत्र घटः, तस्य उत्पत्तिः भवति, घटः जायते, घटस्य उत्पत्तिः भवति, तदनन्तरं किं भवति द्वितीयक्षणे गुणोत्पत्तिः,
गुणोत्पत्तिः भवति।
तत्र तद् आत्मक
तदात्मकसमवायिकारणसमवधानेन इति कारणम् अस्ति, तदात्मकसमवायिकारण समवधानेन द्वितीयक्षणे गुणस्य उत्पत्तिः भवति।
नाम तत्र गुणस्य समवायिकारणमस्ति द्रव्यं, तत्र घटे रूपं यदस्ति तस्य रूपं प्रति घटः एव कारणं, समवायिकारणम् अस्ति, समवायिकारणं यदा भवति तदनन्तरं तस्य रूपस्य उत्पत्तिः भवति द्वितीये क्षणे। अतः अपि घटः रूपं प्रति समवायिकारणम् इति कृत्वा
जानीमः,
घटः कारणं, घटः तत्र अधिकरणमपि घटः अस्ति, कार्यमस्ति रूपं, रूपं समवायसम्बन्धेन घटे तिष्ठति, घटः घटः स्वस्मिन् तादात्म्यसम्बन्धेन तिष्ठति, अतः तदात्मकसमवायिकारणं समवधानेन द्वितीयक्षणे तदस्ति इति कृत्वा द्वितीयक्षणे गुणस्य उत्पत्तिः भवति, यतोहि पूर्वस्मिन् क्षणे तत्र कारणस्य स्थातव्यं, कारणेन स्थातव्यम् इति नियमः, अतः यदा कारणं समवायिकारणम् आगच्छति तदा सम्यक् अस्ति, इदानीं गुणस्य उत्पत्तिः भवितुम् अर्हति इति अस्ति. अस्तु, समीचीनं महोदय. अस्तु, धन्यवादः. अग्रे तत्र अग्रे विमला भगिनी, इदानीं तत्र तत्र अस्ति ते चैत्रम् इति अधोभागे अस्ति, पठित्वा तदनन्तरं चित्रस्य विवरणं करोतु.
आं महोदय, नमस्ते. स्थिते चैवं द्वितीयक्षणे एकत्वमेव उत्पद्यते, तच्च एकत्वं द्वित्वस्य असमवायिकारणम्. अतः एकत्व उत्पत्त्यनन्तरं द्वित्व उत्पत्तिः, तदुत्पत्तिप्रक्रिया च उद्ग्रन्थे द्रष्टव्या.
किन्तु तत्र अस्तु, तर्हि तत्र केवलं तत्र चित्रे किमस्ति इति दृष्ट्वा वदतु, तदनन्तरं परिच्छेदे किमस्ति इति पश्यामः.
प्रथमचित्रे चैत्रक्षणः इति अस्ति, यत्र दण्डादि घटसामग्री सर्वेषां समवधानं सङ्ग्रहम् अस्ति. द्वितीयक्षणे वैशाखक्षणे घटोत्पत्तिः भवति, तत्र न गुणः अस्ति नापि क्रिया, किमपि नास्ति, केवलं घटोत्पत्तिः अस्ति. तृतीयक्षणे ज्येष्ठक्षणः यदा गुणोत्पत्तिः भवति द्रव्ये, इत्युक्ते घटे गुणोत्पत्तिः, रूपम् इत्यादि उत्पत्तिः भवति इत्यादृश. चतुर्थक्षणे आषाढक्षणे इति उच्यते, अत्र रूपादयः इत्युक्ते गुणाः द्रव्ये उत्पद्यन्ते.
सर्वं सन्ति, सर्वं सन्ति,
सर्वमस्ति,
सर्वम् अस्तु. इदानीं तत्र
गुणाः सन्ति इति,
तर्हि प्रथमे क्षणे तत्र प्रथमे क्षणे अस्मिन् क्षणे तत्र किम् अस्ति, तत्र
केवलं दन्तसामग्रीस्य घटः अपि नास्ति,
घटः अस्मिन् क्षणे घटः नास्ति, किन्तु घटसामग्री अस्ति, घटसामग्री अस्ति, घटः अस्मिन् क्षणे नास्ति. इदानीं द्वितीयक्षणे घटस्य उत्पत्तिः, अस्मिन् क्षणे रूपम् इति भवितुम् अर्हति वा?
नास्ति, यतोहि घटः रूपस्य पूर्वमेव भवेत्, यतोहि रूपः गुणः अस्ति, गुणः घटे अस्ति इति कृत्वा घटः पूर्वमेव भवेत्.
हा, किन्तु घटः पूर्वं नास्ति, अतः अस्मिन् क्षणे वैशाखक्षणे रूपं नास्ति, तर्हि अतः एव न गुणः नापि क्रिया इति उक्तम्. किन्तु इदानीम् अस्मिन् क्षणे घटः अस्ति, तर्हि अग्रिमे क्षणे
उत्पत्तिः,
क्रियायाः उत्पत्तिः, एतत् सर्वं भवति भवति. अतः केवलम् एकं क्षणं तत्र उत्पत्तिक्षणं तत्र क्षणमेकं
क्षणमेकं तद् निर्गुणं
यदा उत्पन्नं केवलम् उत्पत्तिक्षणे एव तत्र द्रव्यं निर्गुणं
निष्क्रियं
च तिष्ठति, केवलम् एकक्षणं, तस्य अनन्तरं सर्वम् अस्ति, गुणः अस्ति, क्रिया अपि भवितुम् अर्हति, सर्वं तदनन्तरं सर्वं तेषाम् उत्पत्तिः
भवति
इति अस्ति. अतः केवलं क्षणमेकं तत्र निर्गुणं निष्क्रियं च तिष्ठति इति अस्ति. अतः तदनन्तरं तत्र ज्येष्ठक्षणे गुणोत्पत्तिः, नाम रूपस्य उत्पत्तिः वा, एकत्वस्य नाम सङ्ख्यायाः उत्पत्तिः वा, परिमाणं तत्र गृहान्घटः वा लघुघटः वा इति, तत्र मध्यमपरिमाणम्, एतत् सर्वं तादृशगुणः अपि तत्र स्पर्शः, एतत् सर्वं भवति. तदनन्तरं सर्वम् अस्ति. इदानीं स्थिते
चैत्रे चैत्रमिति अस्ति महोदय, स्थिते चैत्रं द्वितीय
क्षम्यतां, स्थिते च एवं चैत्रं नास्ति,
सम्यक् दृष्टं,
क्षम्यतां,
एवं द्वितीयक्षणे एकत्वमेव उत्पद्यते. इत्युक्ते वैशाखक्षणे क्षणे किं महोदय एकत्वम् उत्पद्यते इति, यतोहि घटः एकः एव अस्ति तदा, द्वितीयक्षणे यदा घटोत्पत्तिः भवति तदा एकमेव अस्ति, तदेव मम भाति अत्र तच्च एकत्वं द्वित्वस्य असमवायिकारणम् एकत्वनन्तरमेव द्वित्वम् उत्पद्यते एकत्वेन अतः एकत्व उत्पत्त्यनन्तरं द्वित्व उत्पत्तिः तदुत्पत्तिप्रक्रिया च उद्ग्रन्थे द्रष्टव्या इति
नाम तत्र सा प्रक्रिया का अस्ति इति अत्र वयं
अत्र न लिखितं अग्रे गत्वा द्रष्टव्यम्
अन्यत्र द्रष्टव्यम् किन्तु तत्र एकत्वं द्वित्वस्य असमवायिकारणम् नाम एकः गुणः
अन्यगुणस्य
कारणमस्ति तत्र एकत्वस्य विना द्वित्वं न वक्तुं शक्नुमः अतः तत्र एकत्वं प्रथमतया भवेत् तत्र एकं पुस्तकम् अतः एव तत्र पुस्तकद्वयम् इति वक्तुं शक्नुमः खलु
महोदय
हा तर्हि पुस्तक प्रत्येकपुस्तके एकत्वं भवेत् तदनन्तरमेव तत्र द्वित्वम् इति वक्तुं शक्नुमः अतः एकत्वम् इति भवेत् अतः गुणम् एकत्वम् इति गुणं द्वित्वं कारणम् असमवायिकारणमस्ति समवायिकारणं द्रव्यम् इति दृष्टवन्तः अत्र तु समवायिकारणं नास्ति यतोहि गुणः अस्ति समवायिकारणं सर्वदा द्रव्यमस्ति एषः एतत् कारणं तु गुणः अस्ति द्रव्यं नास्ति अतः असमवायिकारणम् इति तस्य नामकरणम् अस्य असमवायिकारणस्य निरूपणमेव अग्रे अद्य भविष्यति अतः तत्र उदाहरणं तत्र विषयस्य उद्घाटनं पश्यतु एकत्वं द्वित्वस्य असमवायिकारणं तर्हि असमवायिकारणं किम् इति प्रश्नः उदेति अग्रे
तस्य
विवरणम् अस्ति अस्तु समीचीनं धन्यवादः भगिनि
अस्तु
इदानीम् अग्रे तत्र नरसिंहड्डे महोदय अग्रे पठति वा
आम् महोदय असमवायिकारणनिरूपणम् अतः किमेतत् असमवायिकारणं नाम उच्यते निरूपितं हि समवायिकारणं यद्धि स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति यथा कपालः स्वस्मिन् तादात्म्येन स्थित्वा घटं जनयति अतः कपालः घटसमवायिकारणं तादृशे समवायिकारणे यत् समवायेन स्थित्वा समवायेन कार्यमुत्पद्यति उत्पादयति तत् असमवायिकारणं यथा कपालद्वयसंयोगः घटं प्रति असमवायिकारणं भवति संयोगो हि गुणः सः पूर्वोक्तरीत्या समवायेन द्रव्ये कपाले भवति एवं दण्डचक्रादि कारणसमवधाने अपि न कपालद्वयसंयोगेन विना घटस्य उत्पत्तिः
भवति
अत्र
तर्हि महोदय तत्र प्रायशः तत्र
इदानीम् असमवायिकारणनिरूपणम् आं महोदय इदानीं पर्यन्तं वयं समवायिकारणं निरूपितवन्तः तत्र समवायिकारणे यत् स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यम् उत्पादयति तदस्ति समवायिकारणं यथा कपालघट उदाहरणं कपालः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन घटम् उत्पादयति
तर्हि तत्र चित्रं किं भवति तत्र समवायिकारणस्थले चित्रं तत्र एकवारं लिखामः तत्र समवायिकारणम् इति चित्रं तत्र क्षम्यतां तत्र समवायिकारणं हा तर्हि तत्र कपालः घटः इति घटः इति कार्यं कपालः इति कारणम् अधिकरणं किम् अस्ति
कपाल अधिकरणं
कपालः एव हा कपालः एव समीचीनं कपालः एव अधिकरणं तर्हि अधिकरणं कार्यं कारणं
कारणं
तर्हि अत्र सम्बन्धः तादात्म्यसम्बन्धः अत्र सम्बन्धः समवायिसम्बन्धः समीचीनं महोदय हा इदानीं हा अतः एतावत् वयम् आगतवन्तः यथा कपालः स्वस्मिन् तादात्म्येन स्थित्वा घटं जनयति अतः कपालः घटसमवायि कारणम् अस्तु इदानीम् अग्रे तादृशे
इदानीं तादृशे समवायिकारणे यत् समवायेन स्थित्वा समवायेन कार्यमुत्पादयति तत् समवायिकारणम्
एतत्
समवायिकारणं समवायिकारणे भवति तत्
समवायिकारणे भवति तर्हि तत्र घटस्य
कपाले
असमवायिकारणम् इति वदामश्चेत् तत् कुत्र
कपाले भवेत्
कपाले भवेत् कपाले भवति समीचीनं हा अतः इदानीं तत्र यदि वयं तत्र असमवायिकारणं लिखामः तत्र कपालः इति भवेत् कपाले किमपि अस्ति अपि कार्यं तत्र घटम् इति कार्यमस्ति इदानीं कपालम् इति समवायिकारणमेव तत्र अधिकरणं समवायिकारणम् इति एव अधिकरणम् अपि इति तर्हि तत्र इदानीं यत् अत्र लिखामः तद् भवति असमवायिकारणं तत्र असमवायिकारणं केन सम्बन्धेन समवायिकारणे भवति
असमवायिकारणं समवायसम्बन्धेन दत्तमस्ति समवायेन स्थित्वा
समवायेन स्थित्वा अतः इदानीं तत्र अत्र समवायिकारण सन्दर्भे एकः सम्बन्धः समवायः अन्यः सम्बन्धः तादात्म्यसम्बन्धः किन्तु इदानीं तत्र घटः कपाले समवायसम्बन्धेन अस्ति कार्यम् अपि असमवायिकारणमपि समवायिकारणे समवायसम्बन्धेन एव अस्ति खलु महोदय
समवायसम्बन्धेन अस्ति
हा तर्हि अत्र समवायः अत्र अपि अत्रापि समवायः सम्बन्धः समीचीनं हा अस्तु इदानीं तत्र असमवायिकारणमस्ति तत् तर्हि उदाहरणं
कपालद्वयसंयोगः
हा कपालद्वयसंयोगः इति भवति अस्तु महोदय समीचीनम् अग्रे तत्र धन्यवादः महोदय इदानीं तत्र चन्द्रमती भगिनी तत्र किञ्चित् विवृणोति वा तत्र
धन्यवादः
धन्यवादः महोदय
अनन्तरं पठित्वा
अग्रे अग्रे पठति वा
यथा कपालद्वयसंयोगः खडं प्रति समवायिकारणं भवति संयोगः हि गुणः सः पूर्वोक्तरीत्या समवायेन द्रव्ये कपाले भवति एवं दण्डचक्रादिकारणसमवधाने अपि न कपालद्वयसंयोगेन विना खडस्य उत्पत्तिः यथा कपालद्वयसंयोगः खडं प्रति असमवायिकारणं भवति कपालद्वयः संयोगेन खडं भवति कपालद्वयसंयोगः असमवायिकारणं भवति
प्रथमतया तत्र असमवायिकारणं भवति इति वयं वक्तुम् इच्छामः तर्हि तत्र प्रथमतया किं द्रष्टव्यं तत्र संयोगः कीदृशपदार्थः, तत्र संयोगः अस्ति किमस्ति, संयोगः संयोगः अस्ति
गुणः,
गुणः तर्हि गुणः द्रव्ये आश्रये केन सम्बन्धेन तिष्ठति,
समवायसम्बन्धेन,
समवायसम्बन्धेन. तर्हि तत्र प्रथमनियमः नाम समवायिकारणे,
समवायिकारण
समवायेन भवेत् इति. तत्र यत् अत्र स्थापितुम् इच्छामः असमवायिकरणं,
तत् कपाल
कपाले समवायसम्बन्धेन भवेत्, तर्हि गुणः अस्ति चेत् सम्यक् भवति, यतोहि गुणः समवाय समवायिकारणे समवायसम्बन्धेन अस्ति इति खलु. अपि तर्हि संयोगः पूर्वोक्तरीत्या संयोगः समवायेन द्रव्यकपाले भवति, किन्तु संयोगः किं घटं प्रति कारणमस्ति वा कपालद्वयसंयोगः?
कपालः कारणम् अस्ति, कपालद्वयसंयोगः कारणम् अस्ति, कपालद्वयसंयोगेन खडम् उत्पादयति.
संयोगः न भवति चेत् घटस्य उत्पत्तिः भवति वा?
न,
अतः एव तत्र लिखितम् एवं किमस्ति,
एवं खडचक्रादि एवं दण्डचक्रादिकारणसम समवधाने अपि.
तर्हि यदि दण्डः अस्ति,
चक्रम् अस्ति, चक्र आदि सर्वाणि कार्याणि सन्ति, तादृश
कारणानि कारणसामग्री अस्ति, किन्तु
कपालद्वयसंयोगेन विना खडस्य उत्पत्तिः न भवति.
तत्र न इति पूर्वमेव उक्तं, तर्हि तत्र केवलं भवति इति अग्रिमे पुटे दत्तमस्ति, तत्र न भवति, न भवति उत्पत्तिः न भवति. तर्हि कपालद्वयसंयोगः घटं प्रति कारणम् अस्ति. तर्हि यदि वयम् अत्र लिखामः तर्हि तत्र कपालद्वयसंयोगः इति तर्हि तत्र सम्यक् भवति वा, तत्र असमवायिकारणमिति वक्तुं शक्नुमः वा?
तत्र संयोगः गुणः अस्ति, कपालद्वयं संयोगः इति गुणः, समवायसम्बन्धेन कपाले अस्ति वा, कपालद्वयम्
अस्ति खलु,
अस्ति कपालद्वयसंयोगः समवायेन कपाले अस्ति, खडः अपि कपाले समवायसम्बन्धेन अस्ति.
हा, अपि कारणमस्ति, संयोगः घटं प्रति कारणमपि अस्ति. तर्हि तत्र कारणकार्यकारणसम्बन्धः अत्र अस्ति, कार्यकारणसम्बन्धः अत्र अस्ति खलु.
कपालद्वयसंयोगः खडस्य कारणं,
हा, घटस्य असमवायि कारणम् इति भवति. अस्तु, समीचीनं भगिनि. अस्तु, इदानीं नीता भगिनी तत्र एकवारं वदति वा तत्र कथं तत्र कपालद्वयसंयोगः तत्र असमवायिकारणम् इति तस्य नियमः कः, अपि सः नियमः अत्र कपालद्वयसंयोगे तत्र कथं तत्र सङ्गच्छति इति.
असमवायिकारणं यदा एकः गुणः अन्यस्य गुणस्य कारणं भवति तत् कारणम् असमवायिकारणं.
न न न न न न, एकः गुणः अन्यस्य गुणस्य कारणम् इति नास्ति, यत्किमपि कार्यं भवेत् तस्य असमवायिकारणम् इति भवितुम् अर्हति. अत्र घटः इति कार्यम् अस्ति, तर्हि तत्र घटः गुणः नास्ति खलु. तर्हि तत्र नियमः अस्ति, तत्र अत्र लिखितमस्ति नियमः कः.
असमवायिकारणम् इत्युक्ते तादात्म्यसम्बन्धेन असमवायिकारणं समवायि तादात्म्यसम्बन्धेन
न न न भगिनि 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 एकनिमिषः तत्र तत्र समवायिक तर्हि तत्र एकनिमिषः तत्र समवायिकारणम् इति तस्य विवरणं कुर्मः तदनन्तरम् असमवायि इति वदामः प्रायशः तत्र स्पष्टं भवति तर्हि समवायिकारणं तर्हि अस्मिन् उदाहरणे
अस्मिन् उदाहरणे समवायिकारणं कपाल इति अधिकरणे समवायिकारणं कपाल एव तस्य
घटस्य समवायिकारणं
समवायिकारणम्
अस्ति किमर्थम् इत्युक्ते यतोहि
तत्र घटः इति यदि कार्यं पश्यामः चेत् तत् कपाल इति अधिकरणे तत् तादात्म्यसम्बन्धेन भवति
न न घटः इति समवायसम्बन्धेन भवति अधिकरणे
एकनिमेषम् अस्तु तत्र हा अस्तु घटः इति तादात्म्यसम्बन्धेन
भगिनी न भगिनि सोपानेन गच्छामः तर्हि तत्र प्रथमतया घटः इति कार्यं
घटः इति कार्यम्
अस्तु घटस्य अधिकरणं किम् अस्ति
घटस्य अधिकरणं कपालः इति अस्ति
कपालः इति अस्ति
कपालः इति
अस्तु घटः अधिकरणे केन सम्बन्धेन अस्ति
घटः यदि कार्यं तत् अधिकरणे समवायिसम्बन्धेन तिष्ठति
समवायसम्बन्धेन
समवायसम्बन्धेन अस्ति
अस्तु इदानीं घटः कार्यं कार्यस्य अधिकरणं किम् इति उक्तम् इदानीं कारणं तत्र कपालः इति चिन्तनं कपालः घटस्य कारणं घटं प्रति कारणम् इति चिन्तनं तर्हि कपालः इति कारणं कारणम् अधिकरणे भवेत् खलु
कपाल यदि कारणमस्ति तत् कारणम् अधिकरणे भवेत्
इति नियमः कारणं कार्याधिकरणे भवेत् तर्हि एतत् कारणं कपालः अधिकरणे केन सम्बन्धेन अस्ति
तदपि समवायसम्बन्धेन
न न इदानीं कपालः स्वस्मिन्
स्वस्मिन् तादात्म्यसम्बन्धेन कपालः स्वस्मिन् तादात्म्ये सम्बन्धेन तिष्ठति
अस्ति खलु अतः अत्र तादात्म्यसम्बन्धः अत्र समवायसम्बन्धः
आमाम्
तर्हि अतः एव तत्र अत्र वाक्यं पठतु यथा इति
यथा स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति हा अस्तु अत्र कपालः घटः इति कार्यमस्ति कपालः इति अधिकरणमस्ति कार्यस्य परन्तु कपालः कारणरूपेण तादात्म्यसम्बन्धेन कपाले तिष्ठति अतः तत्र स्वस्मिन् तादात्म्येन स्थित्वा घट इति कार्यं जनयति
जनयति उत्तमं तर्हि समवायिकारणं किम् इति स्पष्टं खलु
आम् आम्
इदानीम् असमवायिकारणम् इति तर्हि असमवायिकारणम् इति तस्य निरूपणम् अत्र अस्ति एकनिमिषः एतत् सर्वं बहुवारं तत्र अण्डर्लैन् अभवत् अतः तत्र त्यजामः इदानीं तर्हि अत्र अस्ति तादृशे इति आरभ्य
तादृशे समवायिकारणे यत् समवायेन स्थित्वा समवायेन कार्यम् उत्पादयति तत् असमवायिकारणं समवायि कारणे समवायेन तिष्ठ्वा समवायिकारणमिति कपालः तस्मिन् समवायेन तिष्ठति असमवायिकारणम् अत्र कपालद्वयसंयोगः इत्युक्ते समवायिकारणे समवायिन्य स्थित्वा कपालद्वयसंयोगः इति असमवायिकारणं कपाले समवायेन स्थित्वा समवायेन कार्यम् उत्पद्यते इत्युक्ते तत्र घटः इति उत्पादनं घटः इति कार्यं घटः इति कार्यं कपाले समवायिकारणं समवायिसम्बन्धेन तिष्ठति.
समीचीनं, हा, अपि उत्तमं. हा, तर्हि घटः इति कार्यं समवायिकारणे समवायसम्बन्धेन तिष्ठ कपाले समवायसम्बन्धेन अस्ति. इदानीम् असमवायिकारणं किमस्ति? तस्मिन् समवायिकारणे कपाले समवायेन तिष्ठति. तर्हि कपालद्वयसंयोगः इति तत्र समीचीनमस्ति वा? तत् कारणमस्ति वा तत्र घटं प्रति? कपालद्वयसंयोगः कारणमस्ति वा?
कपालद्वयसंयोगः कारणमस्ति घटं प्रति.
यदि तत्र कपालद्वयमस्ति किन्तु तयोः संयोगः न भवति
तत् घटं घटः न
घटस्य उत्पत्तिः न भवति. कपाल कपालौ स्तः किन्तु संयोगः न भवति चेत् घटस्य उत्पादनं न भवति. तर्हि संयोगः भवति संयोगः कीदृशपदार्थः अस्ति?
संयोगः इति गुणपदार्थः.
गुणः अस्ति. गुणः आश्रये केन सम्बन्धेन भवति?
गुणः द्रव्ये समवायेन एव भवति.
समवायेन भवति. तर्हि कपालद्वयसंयोगः कपाले समवायेन अस्ति.
समवायेन भवति तिष्ठति.
घटः अपि
कपाले समवायिकारणेन एव तिष्ठति.
समवायसम्बन्धेन एव अस्ति. समवायिकारणे समवायसम्बन्धेन अस्ति. तर्हि इदानीं तत्र एतद् वाक्यं यदस्ति तद् अत्र सङ्गच्छति वा?
अत्र सङ्गच्छति.
एतद् तत्र संयोगः समवायेन समवायिकारणे स्थित्वा समवायसम्बन्धेन कार्यं जनयति. तत्र वाक्ये तत्र अधिकरणं समवायिकारणम् एषः सम्बन्धः समवायेन स्थित्वा इति प्रथमसम्बन्धः. द्वितीयसम्बन्धः समवायेन कार्यम् उत्पादयति इत्युक्ते एषः सम्बन्धः अपि समवायः भवेत् इति अस्ति खलु?
आम् आम्.
समीचीनं
समीचीनम् स्पष्टम्
अस्तु. तत्र समीचीनं भगिनि, धन्यवादः. अन्य कोऽपि तत्र प्रश्नः अस्ति वा?
आचार्य, अनयोः द्वयोः स्थित्योः कः भेदः? अत्र केवलं कपालः अस्ति वामदिशि दक्षिणदिशि कपालद्वयसंयोग इति इतोपि एकं किं गुणं स्वीकृति
तत्र कार्यम् अस्माकं कार्यं किमस्ति अत्र? उदाहरणे कार्यं किम् अस्ति?
घटोत्पत्तिः.
घटः घटः इति कार्यं घटः इति कार्यं. तर्हि घटं प्रति कपालः कारणं वा?
आम्, कपालः कारणं
कारणम् अस्तु. कपालद्वयसंयोगः अपि कारणं वा?
आम्, कारणमस्ति एव.
कारणमस्ति. कपालः अपि कपालसंयोगः भिन्नः वा समानमेव वा?
भिन्नः.
भिन्नः. कपालः भिन्नः, कपालसंयोगः भिन्नः. तर्हि तत्र एतत् कारणम् एकमस्ति, एतत् भिन्नं कारणमस्ति खलु? तर्हि एतत् कारणं समवायिकारणम् अस्ति इति नामकरणम्, एतत् कारणम् असमवायिकारणम् इति नामकरणम्. तत्र भेदः कः पश्यामः. तर्हि तत्र भवती एव वदतु. तत्र समवायिकारणम् इति वदामः तर्हि चित्रं लिखामः. भवती एव इदानीं वदति किं किं लेखनीयम् इति. तर्हि तत्र समवायिकारणचित्रे तत्र समवायिकारणम् इति प्रथमतया तर्हि यदा कारणम् इति चिन्तनं भवति तत्र कारणम् इति अस्ति कार्यमिति एकम् अस्ति, तृतीय अंशः कः अत्र? यदि कार्यं कारणम् इति चिन्तनं भवति तत्र अन्यः अंशः आगच्छति, सः कः? मृणालिनी भगिनी.
आम् आम्, द्रव्यं भवेत् खलु?
न न न न न, तत्र कार्यं कारणम् इति यदि चिन्तयामः तत्र निकषः त्रयमस्ति कारणं प्रति. किं किम् अस्ति?
कारणेन कार्याधिकरणे स्थातव्यं, सर्वदा स्थातव्यं,
पूर्वस्मिन् क्षणे स्थातव्यम्. उत्तमं. तत्र तत्र कार्यं कारणम् अपि नूतनपदमस्ति, अधिकरणं खलु?
अधिकरणम्. आमां.
तर्हि अधिकरणमपि तत्र अस्ति खलु? यत्र यत्र तत्र कारणं कार्यम् इति भवति तत्र अधिकरणं किम् इति प्रश्नः उदेति एव खलु. अस्तु, इदानीम् इदानीं तत्र एकनिमिषः तत्र इति एतत् अन्यत्र स्थापयामः. अस्तु, अस्तु, इदानीम् इदानीं समवायिकारणस्थले तत्र कार्यम् अधिकरणे केन सम्बन्धेन अस्ति? समवायिकारणस्थले
समवायिसम्बन्धेन.
तत्र समवायिसम्बन्धः समीचीनं, समवायसम्बन्धः. इदानीं कारणं केन सम्बन्धेन अधिकरणे अस्ति?
कारणम् अधिकरणे तादात्म्यसम्बन्धेन.
तादात्म्यसम्बन्धेन, उत्तमं. तर्हि तादात्म्यसम्बन्धः अत्र, उत्तमं भगिनि. इदानीम् असमवायिकारणम् इति तर्हि इदानीमपि अंशत्रयमस्ति, कारणं कार्यम् अधिकरणं. तर्हि कार्यं सम्बन्धेन अस्ति, कारणं केन सम्बन्धेन अस्ति अत्र? तर्हि एकवारं भवती तत्र एतत् पठतु, तदा तत्र समवायिकरणस्य विवरणम् अत्र दत्तमस्ति. यदि स्वस्मिन् इति आरभ्य एतत् पठतु भगिनि.
यदि स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति,
तदस्ति समवायिकारणम्. समवायिकारणं किमस्ति? यद् तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति. तर्हि वाक्येन वाक्यस्य विवरणम् अत्र अस्ति, किन्तु यत् चित्रं वयम् अत्र स्थापितवन्तः तयोः मध्ये तत्र समन्वयः भवेत् खलु. तर्हि तत्र यदि स्वस्मिन् तादात्म्यसम्बन्धेन इति वदामश्चेत् तत्र अन्वयः कुत्र अस्ति? अत्र खलु. एषः सम्बन्धः कः इति वदति खलु, तादात्म्यसम्बन्धेन स्थित्वा इति. तत्र एषः सम्बन्धः कः इति वदति खलु. अत्र समवायः सम्बन्धः भवेत् इति कुत्र लिखितमस्ति वाक्ये?
स्थित्वा समवायसम्बन्धेन कार्यं जनयति.
हा, यत्र कार्यं जनयति, केन सम्बन्धेन कार्यं जनयति इति तत्र एषः सम्बन्धः कः इति लिखितः खलु. अस्तु, इदानीं तादृशी इति आरभ्य इदानीम् एतत् पठतु एकं वारं.
तादृशे समवायिकारणे यत् समवायेन स्थित्वा समवायेन कार्यम् उत्पादयति तत् असमवायिकारणम्.
तर्हि इदानीम् असमवायिकारणं, तर्हि कारणमस्ति, कार्यमस्ति, अधिकरणमस्ति. अधिकरणं किं भवेत् अत्र?
कपालः एव अधिकरणम्.
हा, किन्तु उदाहरणं नास्ति, केवलं तत्र असमवायिकारणम् इति वदामः. तर्हि तस्मिन् सन्दर्भे अधिकरणं किम् अस्ति?
अत्र समवायिकारण.
हा, उत्तमं. समवायिकारणमेव अधिकरणम्. उत्तमं. हा, उत्तमं भगिनि. तत्र अधिकरणमस्ति, समवायिकारणं खलु. यतोहि किं लिखितं तत्र समवायिकारणे इति लिखितं खलु तर्हि अधिकरणमस्ति समवायिकारणं हा तर्हि तत्र एषः सम्बन्धः कः अधिकरणे केन सम्बन्धेन अस्ति
कारणम् अधिकरणे तादात्म्यसम्बन्धेन
न भवती पठतु तादृशे समवायिकारणे
तादृशे समवायिकारणे यत् समवायेन स्थित्वा समवायेन कार्यमुत्पादयति
तर्हि अर्थः कः
पुनः आचार्य
तर्हि तत्र सम्बन्धः एषः सम्बन्धः कः
कारणं समवायिकारणे
असमवायिकारणं कुत्र तस्य अधिकरणं किमस्ति असमवायिकारणस्य अधिकरणं किमस्ति
असमवायिकारणस्य अधिकरणं समवायिकारणं
समवायिकरणं समवायिकरणम् अत्र अस्ति अत्र असमवायिकरणमस्ति तर्हि असमवायिकरणं केन सम्बन्धेन समवायिकारणे भवति
समवायेन
समवायेन तर्हि अत्र सम्बन्धः कः
समवायसम्बन्धः
समवायसम्बन्धः उत्तमम्
इदमेव भेदः
इदमेव भेदः एषः एव भेदः अपि अत्र कार्यं केन सम्बन्धेन समवायसम्बन्धेन समवायिकारणे अस्ति अधिकरणे अस्ति इति
तत्तु समवायसम्बन्धः एव सर्वं
यतोहि समवायेन कार्यम् उत्पादयति इति लिखितम् अतः एतदपि एषः सम्बन्धः अपि समवायः तर्हि भेदः कः कार्यं अत्रापि समवायसम्बन्धेन अधिकरणे अस्ति अत्रापि समवायसम्बन्धेन अस्ति किन्तु अधिकरणं समानं भवितुमर्हति न समानं भवितुमर्हति किन्तु न जानीमः इति चिन्तनं मास्तु यतोहि अधिकरणम् अत्र तादात्म्यसम्बन्धम् इति अस्ति अतः समवायिकरणम् एव अधिकरणम् अतः एतत् समवायिकरणमेव अतः अत्रापि समवायिकरणं 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 तत्र समवायसम्बन्धः अत्र किन्तु अत्र सम्बन्धः असमवायिकरणम् अधिकरणे समवायसम्बन्धेन अस्ति अत्र कारणम् अधिकरणे तादात्म्यसम्बन्धेन अस्ति अतः भेदः अत्र तादात्म्यसम्बन्धः अत्र समवायसम्बन्धः स्पष्टं वा
स्पष्टम्
अस्तु समीचीनं अस्तु इदानीम् अग्रे सरामः तर्हि तत्र योगेन्द्रमहोदय अग्रे अतः इति
अतः कपालद्वयसंयोगः घटस्य जनकः अपि भवति एवं सः कपालरूपघटसमवायिकारणे समवायसम्बन्धेन स्थित्वा घटात्मकं कार्यं जनयति अतः कपालद्वयसंयोगः घटस्य असमवायिकारणम् अतः कपालद्वयसंयोगः घटस्य जनकः अपि अस्ति अपि भवति
तत्र तत्र कपालद्वयसंयोगः घटं प्रति कारणमस्ति वा अङ्गीकरोति वा संयोगः घटं प्रति कारणमिति
आम् अस्ति अतः घटस्य जनकः अस्ति कपालद्वयसंयोगः
खलु यतोहि तत्र यदि तत्र संयोगः न भवति चेत् तत्र
घटस्य निर्माणं न भवति
न भवति न भवति
एवं सः श्रूयते महोदय
वदतु महोदय एवं
एवं सः
एवं
कपालरूपघटं
नाम एवं सः एवम् इत्युक्ते कः सः इत्युक्ते कः
इत्युक्ते संयोगः
कपालद्वयसंयोगः
कपालरूप घटसमवायिकारणे समवायसम्बन्धेन स्थित्वा घटात्मकं कार्यं जनयति संयोगः अस्ति स कपालरूप घट समवायिकारणेन समवायसम्बन्धेन स्थित्वा कार्यम् उत्पादयति अतः कपालद्वयसंयोगः अस्ति सः समवायसम्बन्धेन कपाले अस्ति अधिकरणे अस्ति कपालद्वयसंयोगः समवायसम्बन्धेन कपाले स्थित्वा समवायिकारणेन घटम् उत्पादयति
समवायसम्बन्धेन घटम्
उत्पादयति
तर्हि तत् समीचीनं महोदय तर्हि तत्र कपालरूपघटसमवायिकारणे इत्युक्ते कः अर्थः कः
कपालरूपघटसमवायिकारणे तत्तु कारणमस्ति तत्तु कारणमस्ति अस्ति कपालद्वयसंयोगः
न तत्र केवलम् एतम् एतस्य पदस्य अर्थः कः कपालरूपघटसमवायिकारणम्
समवायिकारणम्
कपालरूपघटसमवायिकारणम् इत्युक्ते घटसमवायिकारणं किम् अस्ति कपालः खलु
घटस्य समवायिकारणं कपालः अस्ति
एव एतस्य पदस्य अर्थः घटस्य समवायिकारणं किम् अस्ति कपालः अतः
कपालः एव
तर्हि कपालरूपघटसमवायिकारणम्
अस्तु तदा सम्पूर्णवाक्यमेव भवति एवं कपालद्वयसंयोगः कपालरूपघटसमवायिकारणे समवायसम्बन्धेन स्थित्वा घटात्मकं कार्यं जनयति अतः यत् रक्तवर्णेन लिखितमस्ति कपालद्वयसंयोगः सः कपालरूपघटं नीलवर्णेन लिखितं सः घटः नीलवर्णेन लिखितमस्ति सः कपालरूपघटसमवायिकारणेन अधोभागे अधिकरणे कपालः कपाले समवायसम्बन्धेन स्थित्वा घटात्मकं क्रिया अस्ति घटात्मकं कार्यं जनयति कः जनयति इत्युक्ते कपालद्वयसंयोगः
उत्तमं महोदय तर्हि सः इत्युक्ते कपालद्वयसंयोगः तत् कुत्र भवति समवायिकारणे घटस्य समवायिकारणे घटस्य समवायिकारणे इत्युक्ते कपाले अतः कपालरूपघटसमवायिकारणे नाम संयोगः कपाले अस्ति कपालः कीदृशः अस्ति कपालघटसमवायिकारणम् अस्ति इति कृत्वा कपालरूपघटसमवायिकारणे अत्र अस्ति संयोगः केन सम्बन्धेन अस्ति समवायसम्बन्धेन अस्ति अतः एषः सम्बन्धः समवायः घटात्मकं कार्यं नाम कार्यं किमस्ति कार्यमस्ति घटः इति शैली तादृशी अस्ति कार्यं किं घटः अतः घटात्मकं कार्यम् इति वदामश्चेत् ओ अस्तु कार्यं घटः अस्ति इति अवगच्छामः अत्र कपालरूपसमवायिकारणम् इति यदि पदं पठामः अवगच्छामः अस्तु तर्हि घटस्य समवायिकारणम् अस्ति घटस्य समवायिकारणम् अस्ति कपालः इति कपालरूपघटसमवायिकारणम् इति पदमस्ति चेत् अर्थः कः घटस्य समवायिकारणमस्ति कपालः इति तस्मिन् कारणे तस्मिन् कपाले समवायसम्बन्धेन स्थित्वा घटं जनयति अतः कपालद्वयसंयोगः
समवायसम्बन्धेन कः स्थित्वा इत्युक्ते संयोगः स्थित्वा
संयोगः
घटद्वयसंयोगः समवायसम्बन्धेन कपालः अधिकरणे स्थित्वा घटात्मकं कार्यं जनयति
घटात्मकं कार्यं जनयति अतः कपालद्वयसंयोगः किं भवति घटस्य
असमवायिकारणं भवति
तत् समवायिकारणं नास्ति किन्तु असमवायि कारणम् अस्ति. संयोगः गुणः अस्ति. समवायिकारणं तु सर्वदा द्रव्यमस्ति. अतः समवायिकारणं सर्वदा द्रव्यम्. अत्र असमवायिकारणं गुणः अस्ति, द्रव्यं नास्ति. अतः भिन्नः कारणं, भिन्नं कारणम् अस्ति. समीचीनं महोदय. प्रश्नः अस्ति वा अस्मिन् विषये?
न, नास्ति.
अस्तु, समीचीनं महोदय. अस्तु, इदानीम् अग्रे तर्हि तत्र विमला भगिनी अग्रे इदानीम् एवम् इति.
महोदय अस्तु. एवं तन्तुद्वयसंयोगोऽपि तन्तौ समवायेन स्थित्वा तत्रैव समवायेन घटात्मकं कार्यं
पटात्मकं
कार्यं जनयति इति. तन्तुद्वयसंयोगः पट असमवायिकारणं, यथा समवायिकारणे कार्यता अवच्छेदकसम्बन्धः समवायसम्बन्धः, तथा एव इह अपि समवाय एव. कारणाधिकरणे कपालद्वयसंयोग अधिकरणे कपाले घटस्य समवायेन एव उत्पद्यमानत्वात् इति. प्रथमतया घटस्य विषये, कपालद्वयसंयोगेन घटः उत्पद्यते. कारणमस्ति कपालः. कारणस्य अधिकरणे कपालसंयोगः कारणमस्ति. अस्तु, कारण अधिकरणे कपालसंयोग, तस्य अधिकरणे तस्य संयोगस्य अधिकरणकपाल, तदेव उक्तं खलु महोदय? कपाले घटस्य समवायेन एव उत्पद्य, घटः कपाले समवायेन उत्पद्यते. अपि च कपालसंयोगः
एकवारं पश्यामः, नाम संयोगः तत्र असमवायिकारणम् इति उक्तम्. असमवायिकारणस्य अधिकरणमस्ति समवायिकारणम्. अतः एव कपालः इति अधिकरणं भवति. अत्र सम्बन्धः अस्ति समवायसम्बन्धः.
समवायसम्बन्धः कपाल संयोगे, संयोगयोः मध्ये
संयोगः समवायसम्बन्धेन अधिकरणे अस्ति, कपाले
अस्ति.
अपि एतत् समवायिकरणम् इति कृत्वा घटः समवायसम्बन्धेन
कपाले अस्ति.
अतः
अतः
असमवायिकारणसम्बन्धे सम्बन्धद्वयमपि समवायः एव इति अस्ति. अस्तु, इदानीं नूतन उदाहरणं.
तन्तुद्वयसंयोगस्य विषये उक्तमस्ति. तन्तुद्वयसंयोगः तन्तौ समवायेन तिष्ठति.
इत्युक्ते
संयोगः अपि गुणः अस्ति. गुणः अस्ति कृत्वा संयोगे समवायसम्बन्धेन तन्तौ तिष्ठति. तत्र समवायेन पटम् उत्पद्यति, पटात्मकं कार्यं जनयति. इत्युक्ते कारणमस्ति तन्तुद्वयसंयोगः, कार्यमस्ति पटोत्पत्तिः,
पटः
इति कार्यम्.
अपि तन्तौ तन्तुः इति
अधिकरणमस्ति तन्तुः. तन्तुद्वयसंयोगः समवायसम्बन्धेन तन्तौ अस्ति.
तर्हि एषः सम्बन्धः अपि समवायः,
समवायसम्बन्धः. पट तन्तोः मध्ये पुनः समवायसम्बन्धः अस्ति,
समवायसम्बन्धः एव. समीचीनम्.
अत्र समवाय, तर्हि तन्तुः पटस्य समवायिकारणम् अस्ति.
समीचीनम्.
अपि च तन्तुद्वयसंयोगः असमवायिकारणमस्ति, खलु महोदय?
सत्यं भगिनि, सत्यं.
तन्तुद्वयसंयोगः पटस्य असमवायिकारणम्.
अत एव पटस्य असमवायिकारणमस्ति.
यथा समवायिकारणे, अत्र समवायिकारणमस्ति तन्तुः, तस्मिन् तत् कार्यता अवच्छेदकसम्बन्धः तत् कथं भवत्?
नाम तत्र कार्यता अवच्छेदकसम्बन्धः इत्युक्ते कः सम्बन्धः इति एव. कार्यं
कार्यं घटः अस्ति खलु
केन सम्बन्धेन अधिकरणे अस्ति इति प्रश्नः तावदेव कार्यता अवच्छेदकसम्बन्धः इत्युक्ते केन सम्बन्धेन कार्यम् अधिकरणे अस्ति केन सम्बन्धेन कार्यम् अधिकरणे अस्ति
कार्यतासम्बन्ध अवच्छेदकसम्बन्ध
समवायसम्बन्धेन
पुनः पुनः प्रश्नः कः महोदय
कार्यं तत्र समवायिकारणे तत्र समवायिकारणस्थले यदा वयं समवायिकारणम् इति चिन्तयामः
तन्तुः अस्ति
तन्तुः अस्ति पटः अस्ति पटः कार्यं तन्तुः समवायिकारणमस्ति तन्तोः क्षम्यतां पटस्य तन्तुः पटस्य समवायिकारणमस्ति तर्हि कार्यमस्ति पटः
पटः
अत्र तन्तुः इति अधिकरणमिति चिन्तयामः तन्तुः इति अधिकरणमिति चिन्तयतु तर्हि कार्यम् अधिकरणे केन सम्बन्धेन अस्ति
समवायसम्बन्धेन अस्ति
समवायसम्बन्धेन अतः तत्र वयं वदामः कार्यता अवच्छेदकसम्बन्धः नाम कार्यम् अधिकरणे केन सम्बन्धेन अस्ति इति उत्तरम् इति तस्य उत्तरम् एव तत्र समवायसम्बन्धः नाम तत्र अनेके सम्बन्धाः भवेयुः क्षम्यतां तत्र अनेकाः कार्यताः भवेयुः किन्तु वयम् एषा कार्यता इति वक्तुम् इच्छामः तर्हि एषा कार्यता अन्याः कार्यतायाः भिन्ना इति कथं प्रदर्शयामः पश्यतु एषा कार्यता एतेन सम्बन्धेन अस्ति अधिकरणे इति अतः तत्र अवच्छेदकः
तर्हि
अत्र समवायसम्बन्धः एव अवच्छेदकः नाम समवायसम्बन्धेन कार्यं समवायिकारणे अस्ति
कारणाधिकरणे अत्र कारणमस्ति तन्तुः न घटः घटः घटस्य अत्र घटस्य विषये उक्तमस्ति कारणाधिकरणे कपाले कपालद्वयसंयोगाधिकरणे कपाले पटस्य समवाय घटस्य समवायेन एव उत्पद्यमानत्वात् कपालद्वयसंयोग अधिकरणं तस्मिन् अधिकरणमस्ति कपालद्वयसंयोगस्य अधिकरणमस्ति कपालः अस्ति तस्मिन् कपाले यत् कारणस्य अधिकरणमपि अस्ति घटस्य समवायेन
तत्र नाम यत् वयं चित्रमत्र लिखितवन्तः तत्र एतत् चित्रमस्ति खलु भगिनि तत्र सर्वदा कार्यं कारणम् इति स्थितौ तत्र कारणं किं कार्यं अधिकरणं तत्र स्पष्टतया लिखामस्ति तत्र कपालः इति वदामः किन्तु कपालः केन रूपेण स्वीकुर्मः तत्र अधिकरणे स्वीकुर्मः वा कारणेन स्वीकुर्मः इति क्लेशः भवति खलु अतः तत्र उदाहरणे
कारणकार्यम् अधिकरणमिति वक्तव्यम्
यदि मनसि स्पष्टं भवति चेत् सुलभमस्ति अतः वयं किं वदामः समवायिकारणस्थले वयं वदामः एषः सम्बन्धः समवायः भवेत् इति कार्यम् अधिकरणे अस्ति
समवायसम्बन्धेन अस्ति
अतः कार्यतायाः अवच्छेदकः सम्बन्धः समवायः इति वदामः कार्यतायाः अवच्छेदकः सम्बन्धः समवायः इदानीं तत् समवायिकारणस्थले इदानीम् असमवायिकारणस्थले कार्यमस्ति अधिकरणमस्ति सम्बन्धः कः
तदपि समवायसम्बन्ध
समवायः एव अतः कार्यं समवायसम्बन्धेन अधिकरणे अस्ति तर्हि वयं वदामः कार्यतायाः अवच्छेदकः सम्बन्धः समवायः समवायः तर्हि समवायिकारणस्थले अथवा असमवायिकारणस्थले द्वयोः स्थले तत्र अवच्छेदकसम्बन्धः समवायः एव अस्ति इति अत्र दत्तमस्ति नाम यथा
समवायिकारणे कार्यता अवच्छेदकसम्बन्धः समवायसम्बन्धः अस्तु तथा एव इह अपि समवायः एव इत्युक्ते असमवायिकारणे अपि समवा कार्यता अवच्छेदकसम्बन्धः समवायसम्बन्धः अस्ति इति
इति अस्ति भगिनि उत्तमम् भवती तद् वाक्यं यत् उक्तवती तदेव अस्माकं मनसि भवेत् यथा समवायिकारणे कार्यता अवच्छेदकसम्बन्धः समवायसम्बन्धः अस्ति तथा एव इह अपि असमवायिकारणे कार्यता अवच्छेदकः सम्बन्धः समवायसम्बन्धः एव इति उत्तमं भगिनि तथैव अस्माकं मनसि स्थापनीयमस्ति अग्रे
कारणाधिकरणे कपालद्वयसंयोगाधिकरणे कपाले घटस्य समवायेन एव उत्पद्यमानत्वात्
नाम कारणम् असमवायिकारणाधिकरणे कारणमिति अत्र असमवायिकारणम्
अस्तु
असमवायिकारण अधिकरणे तत्र असमवायिकारणम् इति तत्र उदाहरणे किम् अस्ति तस्य अधिकरणे अधिकरणे कपाले घटः इति कार्यं समवायेन एव उत्पत्तिः भवति नाम घटः कपाले समवायसम्बन्धेन एव तिष्ठति तत्र घटस्य उत्पादम् उत्पद्यमानत्वात् उत्पाद्यमानत्वम् उत्पाद्यमानं समवायसम्बन्धेन एव भवति उत्पादनं समवायेन भवति अतः कार्यता अवच्छेदकः सम्बन्धः समवायः एव अस्ति इति अस्तु समीचीनं धन्यवादः भगिनि अस्तु इदानीं इदानीं नीता भगिनी स्वशब्दैः इदानीं किञ्चित् वदति वा तत्र
तत्र तन्तुद्वय संयोगः इति तन्तुद्वयसंयोगः इति असमवायिकारणं समवायसम्बन्धेन तन्तवः इति अधिकरणे अस्ति तथैव तन्तवः अधिकरणे एव पटः इति कार्यं समवायसम्बन्धेन अस्ति समवायिकारणे कार्यता अवच्छेदकसम्बन्धः समवायिकारणे समवायसम्बन्धः इति कार्यता अवच्छेदकसम्बन्धः अस्ति तथैव असमवायिकारण अधिकरणे असमवायिकारण इति अधिकरणे कपालद्वयसंयोगः असमवायिकारण इति कपालद्वयसंयोग असमवायि अधिकरणे कपालद्वय संयोग इति अधिकरणे
इति अधिकरणे न भवति अत्र अस्तु 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 क्षम्यतां तत्र अस्तु प्रथमतया
तत्र
एकनिमिष तत्र एकनिमिष कार्यता अवच्छेदकसम्बन्धः इत्युक्ते कः
तत् पटः इति कार्यरूपेण तत्र तन्तवः इति अधिकरणे अस्ति पटः समवायिसम्बन्धेन तन्तव तन्तौ अस्ति तत्र यत् कार्यता तत् समवायिकारणे यत् कार्यता अस्ति तत् कार्यता अवच्छेदकसम्बन्धः समवायसम्बन्धः
नाम पटे पटः कार्यं पटे कार्यता अस्ति तर्हि कार्यतायाः अवच्छेदकः धर्मः सम्बन्धः कः सम्बन्धः तत्र अवच्छेदकसम्बन्धः इत्युक्ते समवायसम्बन्धः यतोहि समवायसम्बन्धेन एव कार्यम् अधिकरणे अस्ति
कार्यम् अधिकरणे समवायसम्बन्धेन अस्ति
तिष्ठति अत्र समवायिकारणस्थले तथा अस्ति समवायिकारणस्थले कार्यम् अधिकरणे समवायसम्बन्धेन तिष्ठति इदानीम् असमवायिकारणस्थले तत्र कार्यं किम् अधिकरणे समवायसम्बन्धेन एव तिष्ठति वा
असमवायि कारणं
तत्र असमवायिकारणसन्दर्भे तत्र समवायिकारणे इति यदि अस्ति तत् केवलं विषयसप्तमी नाम यदा समवायिकारणः कारणम् इति विषयः भवति तदा कार्यतावच्छेदकसम्बन्धः अस्ति ता समवायसम्बन्धः तथैव यदि असमवायिकारणम् इति विषयः भवति तदा कार्यतावच्छेदकसम्बन्धः समवायसम्बन्धः एव भवति भवति इदानीम् उदाहरणं पश्यामः तर्हि तत्र कपालद्वयसंयोगः इति समवायिकारणमस्ति वा असमवायिकारणमस्ति वा
कपालद्वयसंयोगः इति असमवायिकारणमस्ति
अस्ति समीचीनं हा तर्हि कारणम् इति यत् अत्र लिखितमस्ति तदस्ति असमवायिकारणम् तर्हि कारण अधिकरणे इत्युक्ते कारणस्य अधिकरणे कारणमेव अधिकरणम् इति नास्ति कारणस्य अधिकरणे तर्हि असमवायिकारणस्य अधिकरणं किमस्ति
असमवायिकारणस्य अधिकरणः अस्ति कपालः इति
कपालः समीचीनं समवायिकारणं
तत्र कपाले अधिकरणरूपेण तत्र सप्तम्यन्तपदं कपाले
इदानीं सप्तमी तत्र अधिकरण अधिकरणरूपेण एव हा विषयसप्तमी नास्ति इदानीं तत्र अत्र तु विषयसप्तमी क्षम्यताम् अत्र नास्ति हा तत्र समवायिकारणे इति तत्र विषयसप्तमी किन्तु इदानीं साक्षात् तत्र अधिकरणम् इति सूचयति कारणता कारणस्य अधिकरणे असमवायिकारणस्य अधिकरणे तत्र अस्मिन् उदाहरणे तत्र असमवायिकारणं किम् अस्ति कपालद्वयसंयोगः
इति असमवायिकारणम्
तस्य अधिकरणे
अधिकरणे
कपाले कपाले समीचीनं हा इत्युक्ते कपाले
इति कार्यं
घटः इति कार्यं
घटः इति कार्यं समवायसम्बन्धेन तत् समवायसम्बन्ध कार्यता अवच्छेदकसम्बन्धः
समीचीनं हा इति अस्ति समीचीनं हा तर्हि असमवायिकारणं यत् अस्ति तस्मिन् सन्दर्भे अपि कार्यं तत्र एतत् चित्रं यत् लिखितवन्तः पूर्वम् असमवायिकारणस्थले असमवायिकारणम् तस्य अधिकरणं यदस्ति तत्र कार्यं समवायसम्बन्धेन तिष्ठति अतः कार्यतायाः अवच्छेदकः सम्बन्धः समवायः असमवायिकारणविषये समवायिकारणविषये अपि कार्यतायाः अवच्छेदकः सम्बन्धः समवायः एव अतः द्वयोः कारणयोः तत्र सामान्यम् अस्ति नाम कार्यतायाः अवच्छेदकः सम्बन्धः समवायः एव अस्ति समवायिकारणं भवतु असमवायिकारणं भवतु कार्यम् अधिकरणे समवायसम्बन्धेन एव तिष्ठति इति अस्ति समीचीनं
समीचीनं
हा अस्तु इदानीम् अग्रे
धन्यवादः
भगिनि हा इदानीम् अग्रे नरसिंह हेग्डे महोदय अग्रे तत्र कारणता इति अस्ति वा महोदय अस्तु तर्हि तत्र चन्द्रमति भगिनि तत्र पठति वा कारणता
अस्मि महोदय अस्तु अस्तु
अस्तु अस्तु अस्तु
किं पठनीयं महोदय
तत्र कारणता अवच्छेदकसम्बन्धस्तु इति
कारणता अवच्छेदकसम्बन्धस्तु समवायिकारणत्वे तादात्म्यं प्रवेशितम् इह भवति समवाय एव तथा च समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न कारणताश्रयत्वम् असमवायिकारणत्वम् असमवायिकारणस्य च तटस्थ तदेव तटस्थलक्षणम् अत्र असमवायिकारणस्य लक्षणं वाक्यम् उक्तमस्ति महोदय कारणता अवच्छेदकसम्बन्धस्तु समवायिकारणत्वे तादात्म्यं प्रवेशितम् इह भवति समवा एव कारणता अवच्छेदकसम्बन्धस्तु समवायिकारणत्वे तादात्म्यं प्रवेशितम्
महोदय तर्हि
तत्र अवच्छेदकसम्बन्धः अपि समवायसम्बन्धः एव भवति
तत्र अस्माकं चित्रद्वयमस्ति खलु महोदय तत्र समवायिकारणम् इति तत्र कारणं कार्यम् अधिकरणम् अपि असमवायिकारणं कारणं कार्यम् अधिकरणम्
अधिकरणम्
अत्र समवायिकारणस्थले एषः सम्बन्धः समवायः असमवायिकारणे अपि एषः सम्बन्धः समवायः खलु किन्तु भेदः कुत्र वर्तते तयोः मध्ये
तत्र कारणमध्ये
अत्र कारणं केन केन सम्बन्धेन अस्ति अधिकरणे
तादात्म्येन तादात्म्येन अधिकरणे अस्ति
अत्र
अत्र समवायेन
समवायेन अस्ति खलु
तदेव
एषः एव भेदः खलु अतः तत्र येन सम्बन्धेन कारणम् अधिकरणे अस्ति तत् कथं वदामः वयं कारणतायाः अवच्छेदकः सम्बन्धः इति खलु
तदेव यत् वाक्यदत्तमस्ति कारणतायाः अवच्छेदकसम्बन्धम्
तर्हि कारणतायाः अवच्छेदकसम्बन्धः समवायिकारणस्थले सम्बन्धः
तादात्म्यसम्बन्धः असमवायिकारणस्थले समवायः अस्ति
समवायः अस्ति इति इदानीं पुनः एकवारं पठतु
कारणता अवच्छेदकसम्बन्धस्तु समवायिकारणत्वे तादात्म्यं प्रवेशितम् इव भवति समवाय एव तत्र समवायिकारणे कारणतावच्छेदकसम्बन्ध तादात्म्यः असमवायिकारणे कारणतावच्छेदकसम्बन्ध समवाय एव भवति
इति अर्थः समवायिकारणस्थले तादात्म्यं सम्बन्धः अवच्छेदकः सम्बन्धः इह इत्युक्ते असमवायिकारणस्थले समवायसम्बन्धः एव कारणतायाः अवच्छेदकः सम्बन्धः तर्हि अत्र
अत्र समवाय भवति समवाय भवति
इदानीं तत्र कार्यतायाः अवच्छेदकसम्बन्धः अस्ति समवायः कारणतायाः अवच्छेदकसम्बन्धः अपि अस्ति समवायः इदानीं तत्र वाक्यं पठतु
तथा च समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपितसमवायसम्बन्ध अवच्छिन्न कारणता आश्रयत्वम् असमवायिकारणत्वम् असमवायिकारणत्वस्य च तदेव तटस्थलक्षणम् अत्र सम्बन्धद्वयमपि समवाय अतः कार्यतावच्छेदकसम्बन्धमपि समवाय कारणतावच्छेदकसम्बन्धमपि समवाय अतः वाक्यं भवति समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपितसमवायसम्बन्ध अवच्छिन्न कारणता आश्रयत्वम् असमवायिकारणत्वम्
एतदेव लक्षणवाक्यं भवति असमवायिकारणस्य तद् तटस्थलक्षणम्
असमवायिकारणस्य अत्र असमवायिकारणत्वम् इति अधिकरणं भवति तत्र आश्रयत्वम् अस्ति
असमवायिकारणे एतद् भवेत् तादृश आश्रयत्वं नाम अस्य कारणतायाः आश्रयः अस्ति असमवायिकारणः कारणम् अतः आश्रयत्वम् असमवायिकारणे अस्ति अतः एव तद् अपि एतादृशविवरणमस्ति तटस्थलक्षणम् इति अस्तु समीचीनमस्ति महोदय धन्यवादः अग्रिमे
धन्यवादः
वर्गे तत्र एतस्य वाक्यस्य तत्र चित्ररूपेण निरूपणं यदि सर्वे तत्र प्रयत्नं कृत्वा आगच्छन्ति सम्यक् भवति तत्र समवायिकारणस्य चित्रनिरूपणम् अपि असमवायिकारणस्य चित्रनिरूपणं यदि एकवारं कृत्वा प्रयत्नं कृत्वा आगच्छन्ति चेत् वर्गे अपि तत्र तस्य प्रयत्नं कुर्मः तदा तत्र मनसि स्पष्टता भवति तदनन्तरम् अग्रे सरामः अस्तु तर्हि बहु समीचीनमस्ति धन्यवादाः अग्रिमे वर्गे मिलामः तर्हि नमस्कारः
धन्यवादः महोदय.